सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, पूर्वस्मिन् वर्गे अदन्ताङ्गेषु परस्मैपदिधातूनां कृते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु इत्युक्ते सार्वधातुकलकारेषु सिद्धतिङ् प्रत्ययानां निर्माणं कथं भवति इति वयं ज्ञातवन्तः। अद्य अदन्ताङ्गेषु आत्मनेपदिधातूनां कृते लट् लकारप्रसङ्गे सिद्धतिङ् प्रत्ययानां निर्माणं कथं भवति इति सूत्राणाम् आधारेण एकवारम् अवलोकयामः। वयं जानीमः सर्वेषु लकारेषु मूलप्रत्ययाः समानाः, आत्मनेपदी धातूनां कृते मूलतिङ् प्रत्ययाः सन्ति। त आतां झ थास् आथां ध्वम् इड् वहि महिन् एते मूलप्रत्ययाः सन्ति आत्मनेपदी धातूनां कृते। भवन्तः सर्वे जानन्ति एव दशधातुगणाः सन्ति। दशसु धातुगणेषु चतुर्षु गणेषु अदन्तमङ्गं सिध्यति। अदन्त अङ्गेषु आत्मनेपदी धातूनां कृते लट् लकार सिद्धप्रत्ययानां निर्माणम् इति अस्माकं विषयः अस्ति। वन्द् इति धातुः अस्ति। वन्द् धातुः भुवादिगणे अस्ति। भुवादिगणे अदन्तमङ्गं सिध्यति। किमर्थं चेत् भुवादिगणे शप् इति गणविकरणप्रत्ययः मध्ये आयाति, तिङ्प्रत्ययं निमित्तीकृत्य आयाति। अतः भुवादिगणे अदन्तमङ्गं सिध्यति। भुवादिगणीय वन्द् धातोः प्रसङ्गे वन्द इति अदन्तमङ्गं सिध्यति। वन्द् धातुः आत्मनेपदी धातुः, अनुदात्तनित आत्मनेपदम् इति सूत्रेण सः धातुः आत्मनेपदी धातुः भवति। वन्द् धातोः लट् लकाररूपाणि एकवारं स्मारयामि। वन्दते, वन्देते, वन्दन्ते, वन्दसे, वन्देथे, वन्दध्वे, वन्दे, वन्दावहे, वन्दामहे एवं रूपाणि भवन्ति। वन्द इति अदन्तमङ्गं सिध्यति। आत्मनेपदी धातूनां कृते लट् लकारे सिद्धप्रत्ययानां निर्माणं कथं भवति, अस्माकं पुरतः रूपाणि सन्ति चेत् तत्र अङ्गं किं, सिद्धप्रत्ययः कः इति ज्ञातुं शक्नुमः। आत्मनेपदी धातूनां कृते सिद्धप्रत्ययाः ते, इते, अन्ते, से, इथे, द्वे, ये, वहे, महे। सिद्धप्रत्ययात् पूर्वं यावदस्ति तत् सर्वम् अङ्गम् इति वदामः। इदानीं करपत्रं पश्यन्तु। करपत्रे आत्मनेपदी धातूनां लट् लकार सिद्धप्रत्ययानां निर्माणं तस्मात् आरभ्य पठनीयमस्ति। पद्मनाभन् महोदय, भवान् आरम्भं करोतु।
महोदय, अत्र नियमाः आरम्भ आत्मनेपदलकारसिद्धिङ् प्रत्ययसिद्धिः
आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः तस्मात् आरभ्य पठतु।
आत्मनेपदपदी धातूनाम् अदन्तधातु अदन्ताङ्गानां कृते सिद्धतिङ् प्रत्ययाः आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः त आतां झ तास् आतां धम् इड् वहि महिम्। अत्र सिद्धान्तः आत्मनेपदविषये टित् लकारेषु ङित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति, तानि कानि इति अग्रे पश्यामः। अन्यच्च अधः लिखितेषु नियमेषु के सामान्याः के विशेषाः इति सदा मनसि निधाय अग्रे गच्छेम। अत्र मूलदातः मूल आत्मनेपदीसंज्ञकदातवः मूलदातवः के इति अत्र लिखितमस्ति। त आतां झ तास् आतां द्वम् इड् वहि महिम्। अत्र आत्मनेपदिविषये टित् लकारेषु ङित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति, तानि कार्याणि कानि इति अग्रे पश्यामः। अनन्तरम् अन्यस्य अधः लिखितेषु नियमेषु सामान्यः के विशेषः के इति सदा मनसि निधाय अग्रे गच्छेम।
महोदय, अत्र ये ये प्रत्ययाः दत्ताः एते सर्वे आत्मनेपदी धातूनां कृते मूलतिङ् प्रत्ययाः। ता आतां झ था साथां ध्वम् इड् वहि महिम् एते प्रत्ययाः अनुबन्धप्रत्ययाः इत्युक्ते अत्र अनुबन्धवर्णाः अपि सन्ति। आदौ निरनुबन्धप्रत्ययानां निर्माणं करणीयम् इत्युक्ते अत्र अनुबन्धाः के इति ज्ञात्वा, इत्संज्ञकवर्णाः के इति ज्ञात्वा, इत्संज्ञकवर्णानां लोपं कृत्वा अग्रे गन्तव्यमस्ति. सिद्धान्तः इति लिखितमस्ति. अस्मिन् परिच्छेदे यानि यानि वाक्यानि दत्तानि तानि सर्वाणि प्रमुखानि, इत्युक्ते दे हाव् लाट् आफ् इम्पार्टेन्स्. आत्मनेपदविषये टित्लकारेषु नित्लकारेषु पृथक्तया भिन्नभिन्नकार्याणि भवन्ति. नित्लकाराणां प्रसङ्गे वयं पठितवन्तः नित्लकारविशिष्टानि कार्याणि, नित्लकारविशिष्टानि सूत्राणि सन्ति खलु, एकवारं स्मारयति वा? नित्लकारविशिष्टानि सूत्राणि कानि? पूर्वं पठितवन्तः विधिलिङ्ग् प्रसङ्गे, लङ् प्रसङ्गे, परस्मैपदीधातूनां प्रसङ्गे वयं दृष्टवन्तः नित् विशिष्टानि सूत्राणि.
एकमस्ति इतश्च नित्लकारस्य स्थाने यः परस्मैपदग्रस्त इकारं दत्तिं कृते तस्य अन्त्य इकारस्य लोपः भवति इतश्च इति सूत्रेण. अनन्तरं तस्तस्तमिपान् तान् तं तामः इति सूत्रेण मूलतिङ् प्रत्ययानां तस् तस् तमिप् इत्यस्य एतेषां स्थाने तस् इत्यस्य स्थाने ताम् आदेशः भवति, तस् इत्यस्य स्थाने तम् आदेशः भवति, त इत्यस्य स्थाने त भवति, मिप् इत्यस्य स्थाने अत्र लोट् लकारव्यवस्था लङ् लकारे भवति अम् इति भवति. अनन्तरम् अत्र झोन्तः इति सूत्रेण प्रत्ययस्य जकारस्
झोन्तः नास्ति, नित् विशिष्टानि सूत्राणि. नित् विशिष्टानि सूत्राणि इति कथनेन नित्यं नितः,
नित्यम् इतः अत्र नित्यलकारस्य उत्तमपदस्य नित्यं लोपः भवति. यत्र उत्तमस्य अन्तिमसकारस्य लोपः भवति, यथा वस् मस् इत्यस्य स्थाने अन्तिमसकारस्य लोपः भवति.
उत्तमम्. इतश्च तस्य समीपां तान्तं तामः नित्यं नितः. अपि च एकम् अन्यत् सूत्रमस्ति, सृजभ्यश्च विधिभ्यश्च इति सूत्रमस्ति. इमानि सूत्राणि नित् विशिष्टानि सूत्राणि. तदर्थमेव अत्र वाक्यं लिखितमस्ति, नित्लकारेषु पृथक्तया विभिन्नानि कार्याणि भवन्ति इति लिखितमस्ति. अपि च अत्र तित्लकारेषु विशिष्टं कार्यं किम् इति प्रश्ने सति एकं सूत्रमस्ति, केवलं तित्लकाराणां प्रसङ्गे एव तत् सूत्रं कार्यं करोति, तदेव अद्य वयं पठामः. तित आत्मनेपदानां टेरे इति सूत्रमस्ति. आत्मनेपदधातूनां विषये टित् लकारेषु तत् सूत्रं कार्यं करोति. टित आत्मनेपदानां टेरे इति सूत्रेण टित्सु लकारेषु कार्यं भवति. तदर्थमेव इदं वाक्यं लिखितमस्ति. नियमाः दत्ताः अधोभागे, तेषु नियमेषु सामान्यनियमाः के, विशेषनियमाः के इति अपि मनसि स्थापनीयम्. अग्रे पठतु.
आत्मनेपदलकारस्य तिङ् प्रत्यय सिद्धिः. नियमाः: टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारः भवति.
न, तस्मात् पूर्वं यथा इति लिखितमस्ति.
यथा टित् लकाराः नाम टकारः इति येषां ते, लट् लिट् लुट् रुट् लोट्, तथैव ङित् लकाराः नाम ङकारः इत्येषां ते, लङ् लिङ् लुङ् लृङ्. अत्र टित् टकारः इत्यस्य सह टित् भवति. यदा टित् वदेम तदा टित् प्रत्ययस्य प्रयोगः लटि लिटि लुटि लुटि लोटि भवति. एवमेव ङित् लकारः ङकारः इत्यस्य सह ङित् भवति. ङित् इति विषयः लङ् लिङ् लृङ् लुङ् लृङ् एतेषां लकाराणाम् अत्र एते प्रयोगः भवति. इत् लकारः
लकारः इति अस्ति चेत् टकारः इत् यस्य सः इति वदामः, किन्तु अत्र बहुवचने दत्तमस्ति विग्रहवाक्यं टित् लकारः. एवं रीत्या विग्रहवाक्यं वक्तव्यं भवति. टित् लकाराः इति कथनेन टकारः इत् येषां ते, तत्र बहुव्रीहिसमासः अस्ति, केवलं विग्रहवाक्यम् अत्र दत्तमस्ति. नित् लकाराः इति कथनेन ञकारः इत् येषां ते, नित् लकाराः के, टित् लकाराः के इति अपि दत्तमस्ति. इत्युक्ते आहत्य दशलकाराः सन्ति, तेषु पञ्चलकाराः
टित् लकाराः सन्ति.
अग्रे
आत्मनेपदे लट् लकारस्य तिङ् प्रत्यय सिद्धिः. नियमाः: टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारः भवति. टित् लकारस्य विषये यत्र आत्मनेपदसंज्ञकः भवति तत्र टी भागस्य स्थाने एकारः भवति. टित् इति एका संज्ञा अस्ति. कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टी संज्ञा भवति. अत्र यदि अन्तिमस्वर अत्र अनेक अचुवर्णः सन्ति चेत् अन्तिमस्वरस्य स्वरात् आरभ्य तस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टी संज्ञा भवति. यथा राम इति शब्दः अत्र मकारोत्तर अकारस्य अकारस्य टी संज्ञा भवति. किमर्थं चेत् मकारोत्तर अकारः अन्तिमस्वरः अस्ति, अतः मकारोत्तर अकारस्य टी संज्ञा भवति. तथैव हरिशब्दे इकारस्य टी संज्ञा भवति. अत्र अत्रापि रकारः रकारोत्तरवर्ती इकारः अन्तिमस्वरः अस्ति, अतः अन्तिमस्वरः टी संज्ञा भवति. मनस् इत्यस्मिन् अस् इत्यस्य टी संज्ञा भवति. यथा त इति प्रत्ययः अत्र टी भागः तकारात्रवर्ती अकारः अस्ति, तस्य स्थाने एकारः भवति. अकारः एकारः भवति टे टीतात्मनेपदानां टेरे इति सूत्रेण. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् उभयत्र इदं कार्यं विधीयते. यदि अङ्गम् अदन्तम् अस्ति चेत् अनदन्तम् अस्ति चेत् उभयत्र एतत् कार्यं भवति एव.
अस्तु, अस्मिन् परिच्छेदे प्रथमं वाक्यमस्ति सूत्रार्थः. टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारादेशः भवति इति टित् आत्मनेपदानां तेरे इति सूत्रेण उच्यते. वन्दते इति रूपं साधयामश्चेत् वन्द इति अङ्गमस्ति, वस्तुतः मूलप्रत्ययः ता अस्ति, किन्तु ते इति रूपं कथम् आयाति इति प्रश्ने सति टित् आत्मनेपदानां तेरे इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययस्य अन्ते स्थितस्य टी भागस्य स्थाने एकारादेशः. इदं प्रथमं वाक्यं सूत्रार्थः अस्ति. टी इति एका संज्ञा इति दत्तमस्ति. व्याकरणे बहवः संज्ञाः सन्ति, तेषु टिसंज्ञा एका संज्ञा अस्ति. तदर्थं सूत्रमस्ति अधोभागे अचोन्त्यादि टि इति सूत्रमस्ति. अचोन्त्यादि टि इति संज्ञासूत्रमस्ति. तेन टिसंज्ञा नाम किम् इति ज्ञायते. टिसंज्ञकभागः कः? यस्य कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तत् सर्वं मिलित्वा तयोः टि संज्ञा इति भवति. उदाहरणानि दत्तानि, राम अपि च हरि मनस् इति दत्तमस्ति. भवान् वदतु पथिन् तत्र टि भागः कः?
इकारः नकारः.
इन् इति भागः टि भागः भवति. रामम्
अम् इति भागः अस्ति.
अम् इति टि भागः भवति. अन्य तत्र टि भागः कः?
यकारोत्तरवर्ति अकारः.
उत्तमं, टि संज्ञायाः अवगमनार्थम् अधोभागे सूत्रं दत्तमस्ति. साधु महोदय, इदानीम् अत्र नरसिंह हेग्डे महोदय भवान् पठतु अधोभागे टि संज्ञा नाम किम् इति अवगन्तुम् अचोन्त्यादि टि इति सूत्रं दत्तमस्ति.
अचोन्त्यादि टि अचां मध्ये यः अन्त्यः सः आदि यस्य तत् टि संज्ञकं स्यात्. अन्ते भव अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीः अच षष्ट्यन्तम् अन्त्यादिः प्रथमान्तं टि प्रथमान्तं त्रिपदमिदं सूत्रम्. अत्र अच एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशय बहुवचनं निर्धारणसप्तमी बहुषु एकं जात्याख्यायामेकम् अस्मिन् बहुवचनं अन्यतरस्यां जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां. सूत्रं स्वयं सम्पूर्णम् अचः अन्त्यादि टि अचोन्त्यादि टि इति सूत्रं वदति. अचां मध्ये यः अन्त्यः सः आदि यस्य तत् टि संज्ञकः स्यात् इत्युक्ते एक शब्दे तत्र बहूनि वर्णानि सन्ति, तत्र अन्तिम अच्वर्णात् आरम्भतः यत्किमपि भवतु तद् टि संज्ञकः भवति इति. अन्ते भवः अन्त्यः अन्त्यः आदिर्यस्य सः अन्त्यादि भौर्वीः अच षष्ट्यन्तम् अन्त्यादि प्रथमन्तं टि प्रथमान्तं त्रिपदमिदं सूत्रम्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. अत्र अच् इत्युक्ते अच् स्वराः इति नास्ति, अच् इति एकम् एव स्वीकृतमस्ति. अत्र जाति इति स्वीकृत्य तत्र अचः इति बहुवचने दत्तमस्ति. आशयः बहुवचनं निर्धारणं सप्तमी बहुषु एकम्. अत्र एकं सूत्रमपि अस्ति जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यामि. जातिम् इति स्वीकुर्मः चेत् तत्र बहुवचनमपि एकवचनं भवति. सूत्रं स्वयं सम्पूर्णम् अच अन्त्यादि टि इति अस्ति महोदय. राम इति शब्दं स्वीकुर्मः चेत् तत्र मकारो प्रवर्ति अकार यत् अस्ति तत् टि संज्ञकः भवति. यदि रामान् अस्ति चेत् तत्र अन्तिम अकार अनन्तरं नकार मिलित्वा टिबा भवति, संज्ञकः भवति।
बहु सम्यक्। अचोन्त्यादिति इति संज्ञासूत्रमस्ति, सूत्रे अचः इति पदमेव दत्तमस्ति, अचः इति एकवचने एव दत्तमस्ति, तथापि बहुवचने एव तस्य अर्थः भवति, इत्युक्ते बहुवचने एव स्वीकरोतु इति तत्र आशयः अस्ति। अच् इति प्रत्याहारः अस्ति, अच् प्रत्याहारेण सर्वेषां स्वराणां ग्रहणं भवति खलु। यद्यपि सूत्रे अचः इति उक्तमस्ति, अचः अन्त्यादिः टि, अचः इति एकवचने उक्तं चेदपि तत्र बहुवचने एव तस्य अर्थः भवति। किमर्थं चेत् अच् इति एका जातिः अस्ति, मनुष्यः इति एका जातिः, गावः इति जातिः अस्ति, एवमेव अत्रापि अच् इति जातिः अस्ति। यत्र यत्र सूत्रेषु जातेः उल्लेखः अस्ति तत्र तत्र तत्पदम् एकवचने अपि भवितुमर्हति, बहुवचने अपि भवितुमर्हति, इत्युक्ते विकल्पेन तस्य अर्थः भवितुं शक्नोति। यद्यपि अत्र अचः इति एकवचने दत्तमस्ति सूत्रे, तथापि तत्र विकल्पेन तस्य अर्थः बहुवचने अचाम् इति स्वीकर्तव्यम्। तदर्थमेव इदं सूत्रं दत्तमस्ति। जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति दत्तमस्ति, इत्युक्ते सूत्रेषु अन्यतरस्याम् इति पदमस्ति चेत् विकल्पेन इति स्वीकर्तुं शक्नुमः। वा इति वा भवतु, अन्यतरस्याम् अथवा वैयाकरणस्य नाम वा भवतु, लोपः शाकल्यस्य एवं वैयाकरणस्य नाम वा भवतु, सूत्रेषु अस्ति चेत् तत्र विकल्पेन कार्यं भवति इति अवगन्तव्यम्। अस्मिन् सूत्रे अन्यतरस्याम् इति लिखितमस्ति, अतः अचः इति पदम् एकवचने अस्ति चेदपि तस्य अर्थः तु अचाम्, अचाम् इति कथनेन अच् वर्णानां समुदायः इति अर्थः अस्ति। अच् वर्णानां समुदायः अस्ति चेत् तस्मिन् समुदाये यः अन्तिम अच् वर्णः अस्ति, तस्य अनन्तरं हल् वर्णाः सन्ति चेदपि तत् सर्वं मिलित्वा तस्य त्रिसंज्ञा भवति इति तत्र अर्थः अस्ति। अचः इत्यस्य अर्थः अचाम्, अचाम् इति कथनेन अच् वर्णानां मध्ये इति अर्थः अस्ति। अच् वर्णानां मध्ये अथवा अच् वर्णेषु इति अर्थः अस्ति चेत् किमर्थं षष्टिविभक्तेः प्रयोगः कृतः, भवान् वदतु। अचाम् इति अर्थः स्वीकर्तव्यः, अचाम् इति कथनेन अच् वर्णानां मध्ये यः अन्तिम अच् वर्णः अस्ति, इत्युक्ते अच् वर्णेषु यः अन्तिम अचुवर्णः अस्ति इति अर्थः अस्ति, इत्युक्ते षष्टि बहुवचनरूपं प्रयुक्तमस्ति, तथापि तत्र निर्धारणसप्तमी बहुषु एकम् इति अर्थः स्वीकर्तव्यः। भवान् वदतु तस्मिन् प्रसङ्गे।
अत्र अचामिति षष्टि अस्ति न महोदय, स्थाने
सूत्रे यद्यपि अचः इति पदं दत्तमस्ति, किन्तु तस्य अर्थः तु अचाम्। किमर्थं चेत् तत्र जातेः उल्लेखः अस्ति, इत्युक्ते यत्र यत्र जातिसमुदायः, गुणसमुदायः, क्रियासमुदायः एवम् अस्ति, तस्मात् समुदायात् यदा वयम् एकस्य पृथक्करणं कर्तुमिच्छामश्चेत्, समुदायात् एकस्य पृथक् करणीयं भवति चेत् तदा षष्टिविभक्तिः अथवा सप्तमीविभक्तिः अपि भवितुमर्हति। तदर्थम् एकम् अन्यत् सूत्रमस्ति, यतश्च निर्धारणम्, यतश्च निर्धारणम् इति सूत्रेण अत्र यद्यपि षष्टि बहुवचनरूपं प्रयुक्तमस्ति, तथापि तस्य अर्थः तु अच् वर्णेषु, इत्युक्ते निर्धारणसप्तमी भवति, बहुषु एकं समुदायः अस्ति, समुदायात् एकस्य पृथक्करणं भवति, अच् वर्णेषु अन्तिम अच् वर्णात् आरभ्य अनन्तरं यदस्ति तत् सर्वं त्रिसंज्ञकभागः भवति इति तत्र अर्थः अस्ति। निर्धारणसप्तम्यर्थे एकं सूत्रमस्ति यतश्च निर्धारणम्। तदवगन्तुम् एकम् उदाहरणं वदामि। मनुष्येषु क्षत्रियः शूरतमः इति वाक्यं साधु, मनुष्याणां क्षत्रियः शूरतमः इति अपि वक्तुं शक्यते, इत्युक्ते मनुष्येषु क्षत्रियः शूरतमः, मनुष्याणां क्षत्रियः शूरतमः, द्वयमपि साधु। कथम्? इत्युक्ते यतश्च निर्धारणम् इति सूत्रेण तत्र षष्टिविभक्तिबहुवचनरूपमपि साधु। वदतु।
पाण्डवेषु धर्मराय ज्येष्ठ, पाण्डवानां धर्मराय ज्येष्ठ इत्यपि वक्तुं शक्नुमः।
गीतातः कानिचन उदाहरणानि वदामि, भगवद्गीतायां बहूनि उदाहरणानि सन्ति।
वयम् अहम् उक्तवान् तत् प्रवेशपुस्तकायाम् अस्ति महोदय, पाण्डवानां पाण्डवेषु पाण्डवानां, तत् द्वयमपि समीचीनम् इति प्रवेश वा तत्र अन्यत् परीक्षायां तत्र अहं लिखितवान् अत्र।
उत्तमं मनुष्येषु क्षत्रियः शूरतमः अथवा मनुष्याणां क्षत्रियः शूरतमः तस्मिन् वाक्ये तत्र मनुष्यः इति जातिः अस्ति यत्र यत्र जातेः ग्रहणं भवति तत्र षष्टिविभक्तिः अपि साधु सप्तमी विभक्तिः अपि साधु अन्यत् उदाहरणं वदामि गवां कृष्णा गौः क्षीरतमा इति वाक्यमस्ति गवाम् इति तत्र षष्टिविभक्ति बहुवचनरूपम् अस्ति तत्र षष्टि बहुवचनमपि साधु तस्य अर्थः कः गोषु कृष्णा गौः क्षीरतमा इति अर्थः अस्ति इत्युक्ते तत्र विकल्पेन षष्टिविभक्तिः सप्तमी विभक्तिः द्वयमपि साधु भवति तदर्थं सूत्रं यतश्च निर्धारणं गीतायां दशमाध्यायस्य नाम विभूतियोगः विभूतियोगे बहवः श्लोकाः सन्ति तेषु श्लोकेषु बहुत्र अस्य प्रयोगः भवति वेदानां सामवेदोऽस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनश्चास्मि आदित्यानाम् अहं विष्णुः ज्योतिषां रविरंशुमान् नक्षत्राणाम् अहं शशी इत्यादीनि वाक्यानि गीतायां द्रष्टुं शक्नुमः तेषु वाक्येषु यद्यपि षष्टि बहुवचनरूपं दत्तमस्ति तथापि तस्य अर्थः तु सप्तमी विभक्ति अर्थः अस्ति वेदानां सामवेदः इत्युक्ते वेदेषु सामवेदः अहमस्मि इति तत्र अर्थः अस्ति यतश्च निर्धारणम् इति सूत्रेण निर्धारणसप्तमी भवितुम् अर्हति एवमेव अत्र अचोन्त्यादिर्ति इत्यस्मिन् सूत्रे अपि अचः इति एका जातिः अस्ति यत्र यत्र सूत्रेषु जातेः उल्लेखः भवति तत्र समुदायात् एकस्य पृथक्करणं कर्तुम् इच्छामश्चेत् तत्र निर्धारणसप्तमी इति अर्थः यद्यपि षष्टि बहुवचनम् अचाम् इति स्वीकुर्मः तस्य अर्थः तु अच् वर्णेषु अन्तिम अच् वर्णात् आरभ्य इति तत्र अर्थः अपि च अत्र इतोपि किम् अस्ति इत्युक्ते यतस्य निर्धारणम् इति सूत्रं कारकसम्बद्धसूत्रं कारकाणि सन्ति खलु षट् कारकाणि सन्ति इदं सूत्रं कारकसम्बद्धसूत्रम् उपपदसप्तमीविभक्तेः प्रसङ्गे इदं सूत्रम् आयाति वदतु नो चेत् उपरि गत्वा पठतु
तत्र अचोन्त्यादिति तद् अभवत् अतोनित पठामि
द्वितीयबिन्दुः अस्ति नियमाः इत्यत्र
नियमः द्वितीयनियमः अस्ति अदन्तानाम् अङ्गात् परस्य आकारस्य स्थाने इत्थं स्यात् नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति आताम् अथाम् अनयोः स्थितस्य आकारस्य स्थाने इ अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवत्येव किन्तु अङ्गम् अनदन्तम् अदन्तमस्ति चेत् तर्हि टित्सु नित्सु उभयत्र इ आदेशः भवति वस्तुतः इ आदेशः भवति तदा यकारस्य लोपः अल्प्रत्याहारे परे इदानीम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् इति द्वितीयनियमः अस्ति नाम यदि अङ्गम् अदन्तमस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः अकारः अस्ति तस्य स्थाने इकारः भवति अत्र आथाम् अनन्तरम् आथाम् इत्युक्ते लट् प्रथमपुरुषे द्विवचन द्वितीय मध्यमपुरुषद्विवचन प्रत्ययानां कृते एतत् सूत्रम् अन्वयति तत्र आथाम् आथाम् इत्यत्र अकारस्थाने इकार भूत्वा इथाम् इथां भवति अङ्गम् अनदन्तं चेत् एतत् कार्यं न भवति अङ्गम् अदन्तं चेत् एतत् कार्यं भवति तित्सु अनन्तरं नित्सु उभयत्र इ आदेशः भवति इत्युक्ते लोट्लकारे अनन्तरं लङ्लकारे विधिलङ्लकारे इदानीं इ इ आदेशः भवति वस्तुतः इ आदेशः भवति अनन्तरं तस्य यकारस्य लोपः भवति वल् प्रत्याहारे परे अस्ति चेत् अतः केवलं यत्र इकार आदेशः भवति दत्तमस्ति यतोहि तत्र इ इति आदेशः भवति इकार यकार इ अनन्तरं यकारः इ तत्र यकारस्य लोपयोरल् इति सूत्रेण परे वल् प्रत्याहारः अस्ति चेत् तत्र लोपः भवति केवलम् इ एव तिष्ठति अतः इताम् इथाम् इति भवति रूपाणि
इत्युक्ते अस्य सूत्रस्य कार्यं स्थलद्वये भवति आताम् आथाम् अनयोः प्रसङ्गे आकारस्य स्थाने वस्तुतः मूलस्थित्याम् इ आदेशः भवति किन्तु अत्र तकारः थकारः वर्णद्वयमपि वल् प्रत्याहारे अस्ति इति कारणतः इ इत्यस्य यकारस्य लोपः भवति खलु लोपोवियोर्वलि इति सूत्रेण भवति अपि च द्वितीयबिन्दोः प्रसङ्गे एव आतोनितः इति सूत्रं दत्तमस्ति अग्रे पठतु
तृतीयबिन्दुः मध्यमपुरुषस्य स्थाने से आदेशः अयम् आदेशः चित्सु लकारेषु भवति मध्यमपुरुषे यत् प्रत्ययः तास् अस्ति तस्य स्थाने से आदेशः भवति एतत् केवलं तित्सु लकारेषु इत्युक्ते लोट् लकारे एव भवति एतत् कार्यं तृतीयकार्यमस्ति आं तास् अत्र से इति अनेकाल् अस्ति अतः अनेकाल् सर्वसेचनेन अन्ति सर्वस्य स्थाने भवति
उत्तमम् अनेकाल्चित् सर्वस्य सूत्रेण सर्वादेशः भवति थास् स्थाने से आदेशः भवति से इति अनेकाल आदेशः आहत्यत्र त्रयः नियमाः सन्ति एतेषां त्रयाणां नियमानां प्रसङ्गे त्रीणि सूत्राणि अपेक्षितानि खलु प्रथमनियमस्य प्रसङ्गे टित आत्मनेपदानां टेरे इति सूत्रम् अस्ति द्वितीयनियमस्य प्रसङ्गे आतोनितः इति सूत्रमस्ति तृतीयबिन्दोः प्रसङ्गे थासहसे इति सूत्रमस्ति आहत्य अन्ततो गत्वा आत्मनेपदिधातूनां प्रसङ्गे लट्लकारसिद्धप्रत्ययानां विषये त्रीणि नूतनानि सूत्राणि पठनीयानि इदानीं नियमान् अनुसृत्य एकमेकं स्वीकृत्य कार्यं करोतु
नियमान् अनुसृत्य कार्यम् एवं इति प्रथमप्रत्ययः अस्ति लट्लकार प्रथमपुरुष एकवचनं अत्र तस्य स्थाने अ इति टी भागः सकारोत्तरवर्ति अकार तस्य स्थाने एकार भवति तित आत्मनेपदं टेर इति अतः ते इति लट् प्रत्ययः निष्पन्नः भवति
ता इति प्रत्ययस्य स्थाने ते आयाति सिद्धप्रत्ययः एधते इति रूपमस्ति एधते इति रूपं कथं साधनीयम् एध इति अङ्गमस्ति एधधातुः भुवादिगणे अस्ति आत्मनेपदी धातुः अस्ति तस्य प्रथमपुरुष एकवचनरूपम् एधते अस्ति वदतु तत् कथं साधनीयम् एधते
एदिति धातु तत्र एदिति एध इति अङ्गम् एध इति अङ्गम् अनन्तरं त इति प्रत्ययः तत्र एधत भवति अनन्तरं तत्र तकारोत्तरवर्ति अकारस्य चित आत्मनेपदं ठेरे इत्यनेन एत्वं भवति
अत्र टी संज्ञक भागः कः
अकार अस्ति
अकारः अस्ति अकारस्य स्थाने एकारादेशः भवति इत्यतः ते इति रूपम् आयाति एधा योगः ते एधते इति रूपं भवति अग्रे
आताम् आताम् इति आम् इति टी भागः तस्य स्थाने एकारः भवति चितात्मनेपदं ठेरे इत्यनेन इतः आते इति भवति इदानीम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् इति वयं पठितवन्तः अतः आस्थाने इ इति भवति अतः इते इति लट् प्रत्ययः निष्पन्नः इदानीम् एध इति अङ्गमस्ति इते इति अस्ति तत्र अकार इकारसंहितायमस्ति आद्गुण इत्यनेन आद्गुण इत्यनेन गुणसन्धि गुणकार्यं भूत्वा एदेते इति भवति
आताम् इत्यत्र अन्ते मकारः अस्ति खलु मकारस्य इति संज्ञा किमर्थं न भवति
तत्र आतामिति किं प्रत्ययः अस्ति न विभक्तौ तु स्म इत्यनेन तस्य न भवति तत्
इत्युक्ते यद्यपि अन्तिमः हल्वर्णः अस्ति हलन्त्यम् इति सूत्रं बाधित्वा तत्र न विभक्तौ तु स्मः इति सूत्रेण मकारस्य इति संज्ञा न भवति मकारः यथावत् तिष्ठति आताम् इत्यत्र टी संज्ञकभागः आम् अस्ति आम् इति टी संज्ञकभागः अस्ति आम् स्थाने एकारादेशः भवति इत्युक्ते टित आत्मनेपदानां टेरे इति सूत्रं बहुत्र कार्यं करोति इत्युक्ते बहूनां प्रत्ययानां प्रसङ्गे तेन कार्यं भवति इत्युक्ते टित आत्मनेपदानां टेरे इति एकेन सूत्रेण लट्लकारप्रसङ्गे अष्टसु स्थलेषु अष्टानां प्रत्ययानां प्रसङ्गे कार्यं साधितं भवति तदर्थमेव वयं वदामः सूत्रं सर्वदा अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् विश्वतोमुखम् इत्युक्ते इट्स् अप्लिकबिलिटि इस् इन् मेनि प्लेसेस् एत आत्मनेपदानां तेरे इति सूत्रस्य प्राप्तिः बहुत्र भवति होलिस्टिक् अप्रोच् उत्तमम् अग्रे वदतु
इदानीं तृतीयप्रत्ययः
झ प्रत्ययः
एकक्षणं तत्र झ प्रत्ययः झ स्थाने अन्तादेशः एतत् पूर्वमपि वयं पठितवन्तः झोन्त इत्यनेन अन्तादेशः भवति इदानीम् अन्त योग अ इति टी भागः अन्त भवति अन्त इत्यत्र अ इति टी भागः अन्तिमच्वर्णः तस्य स्थाने एकारः भवति इतः अन्ते इति लट् प्रत्ययः निष्पन्नः इदानीम् एध योग अन्ते तत्र अतोगुण इत्यनेन एदन्ते इति रूपं भवति
अत्र किमर्थं सवर्णदीर्घसन्धिकार्यं न भवति
सवर्णदीर्घसन्धि भवति चेत् अनिष्टरूपं भवति इति कृत्वा अतोगुण इति सूत्रमस्ति तत्र यदा अकारोत्तर अकारत् परे पर गुणवर्णः अस्ति चेत् तत्र पररूप एकादेश भवति.
उत्तमं. येध योगः अन्ते, अन्ते इति सिद्धप्रत्ययः अस्ति, येध इति अङ्गमस्ति, येध योगः अन्ते इत्यत्र सवर्णदीर्घसन्धिं बाधित्वा अतो गुणे इति सूत्रेण अपवादसूत्रेण अत्र पररूपादेशः भवति इत्यतः एधन्ते इति रूपं तत्र सिद्ध्यति. अत्र गुणसंज्ञकवर्णः कः? येध योगः अन्ते इत्यत्र
अन्ते इत्यत्र अकारः, अन्ते इत्यत्र अकारः प्रथम अकारः अस्ति गुणवर्णकसंज्ञकः.
उत्तमम्. अकारः, एकारः, ओकारः एते त्रयः वर्णाः गुणसंज्ञकवर्णाः. गुणसंज्ञकवर्णाः के इति अदेङ्गुणः इति सूत्रेण ज्ञायते. येध योगः अन्ते इत्यत्र अतो गुणे इति सूत्रेण पररूपादेशः भवति, इत्युक्ते गुणसंज्ञकवर्णादेशः भवति अत्र. अतः एव येधन्ते इति रूपं साधयितुं शक्नुमः. बहु सम्यक्. नीलं भगिनी भवती वदतु. झि अभवत्, ठास्.
ठास् इति प्रत्ययः तत्र मध्यमपुरुषे एकवचने अस्ति. इत्सु से आदेशः, से इति लट् प्रत्ययः निष्पन्नः. सो आत्मनेपदी धातु, आत्मनेपदी प्रत्ययः अस्ति थास्. तत्र थासः से इति सूत्रेण तत्र थास् सम्पूर्ण थास् प्रत्ययस्य स्थाने तत्र से आदेशः भवति. अपि च अत्र लिखितं टित्सु. सो एतत् कार्यं टित्सु लकारेषु भवति. सो टित्सु से आदेशः, थास् स्थाने से आदेशः. अतः से एव तत्र सिद्धतिङ्ग लट् सिद्धतिङ्ग प्रत्ययः.
अत्र टितात्मनेपदानां तेरे सूत्रस्य कार्यं किमर्थं नास्ति? अत्र टीसंज्ञकभागः कः थास् इत्यत्र?
थास् इत्यत्र अत्र आस् इति टी तस्य टीसंज्ञा अस्ति आस् भागस्य.
टितात्मनेपदानां तेरे इति सूत्रेण एकारादेशं कुर्मः चेत् तत्र किं भवति?
तत्र थे इति भवति.
लोके यद्रूपमस्ति एधसे अथवा वन्दसे इति रूपं यदस्ति तदेव साधनीयम्. अतः थकारस्य स्थाने केनचित् सूत्रेण अथवा कथञ्चित् थकारस्य स्थाने सकारः आनेतव्यः खलु? इत्युक्ते तत्र सोपानद्वयम् अपेक्षितमस्ति, किन्तु पाणिनिः भिन्नरीत्या चिन्तनं कृतवान् तथा न कृतवान्. इत्युक्ते अस्मिन् स्थले एव टित आत्मनेपदानां टेरे इति सूत्रस्य कार्यं नास्ति. इत्युक्ते विशेषसूत्रेण थासहसे इति सूत्रेण एकेन सूत्रेण थासस्थाने से आदेशः भवति इति उक्तवान्. भवती वदतु अस्मिन् प्रसङ्गे.
इत्युक्ते थासहसे इति अपवाद् सूत्रम् अस्ति टित आत्मनेपदानां टेरे इत्यस्य कृते. अश्च अत्र टित आत्मनेपदानां टेरे इति सूत्रं बाधित्वा थासहसे इति सूत्रस्य कार्यं भवति. किमर्थं चेत् अन्यत्र कुत्रापि एतस्य सूत्रस्य कार्यं नास्ति, केवलं थास् विषये एव अस्ति. अतः तत्र औत्सर्गिक अपवादनियमः.
नो चेत् टितात्मनेपदानां टेरे इति सूत्रं प्रयुज्य कार्यं कर्तुम् इच्छामश्चेत् तत्र इतोपि अन्यत् सूत्रं, नूतनं सूत्रम् अपेक्षितं भवति. इत्युक्ते तत्र मार्गः दीर्घः भवति, सोपानद्वयम् अपेक्षितमस्ति. लाघवं मनसि निधाय एकेन सूत्रेण एव एतद्रूपं साधितवान्. एकेन सूत्रेण थासहसे इति सूत्रेण कार्यं समाप्तं भवति खलु? एधसे इत्यत्र किं कार्यमस्ति?
एदस्य तथैव एद धातुः अस्ति, द्वौ अधिगणे अस्ति, शप् इति विकरणप्रत्ययस्य भागः अस्ति. अतः तत्र एद इति अदन्ताङ्गम् अस्ति, अनन्तरं लट् लकारः. एद् इति आत्मनेपदी धातु, अतः आत्मनेपदी प्रत्ययः योजनीयं. सो मध्यमपुरुष एकवचनस्य विवक्षायां थास् योजनीयं. सो थासः इति सूत्रे तत्र टित आत्मनेपदानां तेरे इति सूत्रं बाधित्वा थासः से इति सूत्रेण कार्यं कुर्मः चेत् तत्र सम्पूर्ण थास् स्थाने से आदेशः भवति. अनन्तरं केवलं वर्णमेलनमस्ति थासे एदसे इति रूपम्.
अग्रे
लिखितम् आथाम् इति प्रत्ययः. सो आथाम् इति आम् इति टी भागः अत्र अचोन्त्यादि टि इत्यनेन आम् इति टि भागः, तस्य स्थाने एकारादेशः टितात्मनेपदानां टेरे. अतः तत्र आथे इति भवति. सो अदन्त अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने इ आदेशः, ह्रस्वीकारस्य आदेशः. इथे इति लट् प्रत्ययः निष्पन्नः, इ आदेशः तदा यलोपः. अस्तु अत्र आकारस्य इत्वम् इत्युक्ते तत्र इय इति आदेशः भवति परन्तु तत्र अनन्तरं तत्र यकारस्य अपि लोपः भवति अतः यकारान् तिष्ठति
प्रथमसोपानात् वदतु आथाम् इति स्वीकरोतु आथाम् इत्यत्र टी संज्ञकभागः
आम् इति टी भागः तत्र आम् स्थाने तत्र एकार आदेशः भवति अतः आथे इति भवति इदानीं तत्र
एधा इति अदन्तमङ्गमस्ति इति कारणतः
एध इति अदन्तमङ्ग अङ्गमस्ति अतः तत्र यः आकारः प्रत्यस्य यः आकार अवयवः तस्य स्थाने इय इति आदेशः भवति अनन्तरं तत्र यकारस्य परे तत्र इदानीं यकारस्य तत्र लोपः भवति
किमर्थं लोपः भवति अत्र कारणं किं
सूत्रमस्ति भगिनि इदानीमेव
लोपो व्योर्वलि यकारस्य लोपः भवति अत्र वल्वर्णः कः
वल्वर्णः अत्र यः थकारः अस्ति थकारस्य कारणेन तत्र यकारस्य यकारः न तिष्ठति तस्य लोपः भवति लोपव्योर्वलि इत्यनेन अतः केवलम् इकारः एव अवशिष्यते अतः इथे इति सिद्धतिङ् प्रत्ययः अनन्तरं तत्र एध योग इथे कुर्मः चेत् तत्र तत्र गुणकार्यं भूत्वा तत्र एधेथे इति भवति गुणकार्यं न भवति गुणसन्धि भवति अकार इकारस्य स्थाने तत्र द्वयोः स्थाने तत्र इकारादेशः भवति अतः एधेथे इति भवति रूपम्
उत्तमं पूर्वं वयं दृष्टवन्तः महोदयेन उक्तमेव आतां प्रसङ्गे यादृशचिन्तनम् अस्ति तादृशं चिन्तनमेव आथां प्रसङ्गे अपि अस्ति खलु
आमां सत्यं तत्र प्रत्ययद्वयम् एव यत्र दीर्घ आकारः श्रूयते अतः तत्र यः सूत्रम् अस्ति आतोनितः तत्र एतस्य प्रत्ययद्वयस्य विषये एव कार्यम् अस्ति तत्र इय इति आदेशः भवति आकारस्य स्थाने अदन्ताङ्गेषु अदन्ताङ्गस्य परे तत्र आकारस्य तत्र इय आदेशः भवति आकारः स्थानद्वये एव अस्ति अतः तत्रैव कार्यम्
उत्तमम् आताम् आथाम् इति स्थलद्वये एव टित आत्मनेपदानां तेरे अपि च आतोनितः इति सूत्रद्वयेन कार्यं भवति अपि च आतोनितः इति सूत्रेण आकारस्य स्थाने इय् आदेशः भवति अत्र तकारः थकारः वर्णद्वयमपि वल् प्रत्याहारे अस्ति इति कारणतः वलादिप्रत्यये परे इय् इत्यस्य यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण अत्र वल् वर्णः थकारः अस्ति अग्रे
अग्रे तत्र अनन्तरं ध्वम् इति प्रत्ययः अस्ति ध्वं प्रत्यये तत्र अम् इति टी भागः अन्तिम अम् इति भागः टी भागः तस्य स्थाने तत्र एकारादेशः भूत्वा तत्र द्वे इति प्रत्ययः भवति द्वे इति रूपं सो द्वे एव तत्र सिद्धतिङ् प्रत्ययः अन्यत् कोऽपि कार्यं नास्ति अतः एध द्वे इति तत्र भवति बहुवचने
इत्युक्ते अत्रापि टित आत्मनेपदानां टेरे इति सूत्रस्य कार्येण एकारादेशः भवति टी भागस्य स्थाने एकारादेशः भवति अम् इति टी भागः अस्ति साधु भगिनी उत्तमं मनीषा भगिनी अग्रे करोतु
इड् इति अस्ति इड् इति प्रत्ययः तर्हि डकारस्य इत्यस्य इतसंज्ञा लोपः च इति टी भागः तस्य स्थाने एकारः ए इति लट् प्रत्ययः निष्पन्नः तर्हि इड् इति अस्ति इट् वहिङ् महिङ् इड् हा ब्रह्म उत्तमपुरुष एकवचनस्य प्रयोगः अस्ति अत्र तर्हि तत्र इड् मध्ये डकारः अस्ति तस्य हितसंज्ञा तस्य लोपः भवति इ इति अवशिष्यते
केन
हलन्तं हलन्तं
हलन्त्यं
हा हलन्त्यम् इति सूत्रेण डकारस्य हितसंज्ञा तस्य लोपः इत्यनेन लोपः भवति तर्हि इ एव अवशिष्यते तर्हि इकार अस्ति केवल इ तस्य टी भाग् स्वयम् इ एव अस्ति अहं चिन्तयामि अत्र सूत्रस्य आवश्यकता अस्ति वा आद्यन्ते वदे कस्मिन् अचोत्यदिति इति सूत्रं वदति यत् अचो अचां मध्ये यः अन्त्य अच् अस्ति अच् यः अन्त्य अस्ति तस्मात् अनन्तरं य अनन्तरं कोऽपि अच् अच् अस्ति तर्हि द्वयोः मध्ये ये सर्वे व्यञ्जनाः सः भागः अस्ति टी भागः अहं मम भाषया उक्तवती सम्यक् वा
वदतु
तर्हि अचन्त्यदिति इति सूत्रेण टी भाग अस्ति अत्र इ एकाकी एव अस्ति तर्हि यः एकः अस्ति तस्य एव ग्रहणम् अत्र भवति अद्यन्तवदे कस्मिन् इति सूत्रस्य अत्र प्रयोजनमस्ति वा नास्ति अहं न जानामि
अत्र टी भागः कः
इ एव
इदानीम् अत्र टी भागस्य स्थाने एकारादेशः भवति
टित् आत्मनेपदानां टेरे अहम् इदानीमेव पठितवती टित् आत्मनेपदानां टेरे इति सूत्रेण टी भाग्यः अस्ति तस्य स्थाने एकारादेशः भवति तर्हि अत्र इड् मध्ये टी भाग् अस्ति इ तर्हि तस्य स्थाने सम्पूर्णस्य स्थाने अत्र ए इति आदेशः भवति अत्र अलोन्त्यस्य इति वा अनेकांशित् सर्वस्य अहं न जानामि कस्य आधारेण अत्र एकारः आदेशः भवति
आदेशे एकः एव वर्णः अस्ति इत्यतः अलोन्त्यस्य कार्यं कर्तुं शक्नोति खलु
आं तर्हि अलोन्त्यस्य इति आम्
एध् धातुतः एध इति अङ्गमस्ति इदानीं एधे इति रूपं साधयतु
एधि एध धातुः अस्ति एध योगः इड् एध एध योगः इड् इड् मध्ये यत् अन्तिम डकारः अस्ति तस्य हलन्त्यम् इति सूत्रेण इदसंज्ञा भूत्वा तस्य लोप इति सूत्रेण लोपः भवति इ एव अवशिष्यते एध योग इ इदानीम् अत्र इकार एव अस्ति तर्हि अचोन्त्यदिति इत्यनेन अस्य टी भागः अस्ति इदानीम् इ इति टी भागः अस्ति इति आत्मनिपदिनां टेरे इति सूत्रेण तस्य टी भागस्य यः अस्ति तस्य स्थाने एकारादेशः भवति तर्हि अत्र टी भागः अस्ति इ एव टी भागः तर्हि तस्य स्थाने ए आदेशः भवति तर्हि एध योग ए इति अस्ति अत्र एध योग ए तर्हि अत्र अहं चिन्तयामि अत्र एधयोग ए तर्हि अत्र वृद्धिसन्धि भवति
वृद्धिसन्धिः भवति चेत् रूपं किं भवति
एधै भवति किन्तु रूपं किमस्ति अहं न जानामि
रूपमस्ति एधे किं वक्तव्यम् इत्युक्ते अत्र एधयोगः ये इत्यत्र वदतु
वृद्धिसन्धि नास्ति किन्तु अत्र अतोगुणे
अतोगुणे
इत्यनेन अत्र एध इति पदान्त अस्ति तेन अत्र अकारात् अनन्तरं यदि कोऽपि गुणसंज्ञक वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पररूप एकादेशः भवति तेन अत्र एकार एव तिष्ठति अकार एकार मध्ये एकार एव तिष्ठति तेन एधे इति भवति
उत्तमम् इत्युक्ते अत्र वृद्धिसन्धिं प्रबाध्य वृद्धिसन्धिं बाधित्वा अत्र अतोगुणे इति सूत्रेण पररूपादेशः भवति गुणसंज्ञकवर्णादेशः भवति अतः एव एधे इति रूपं सिद्ध्यति एधन्ते इति रूपसाधनवेलायाम् अपि ईदृशं चिन्तनमेव वयं कृतवन्तः एधयोगः अन्ते इत्यत्र सवर्णदीर्घसन्धिकार्यं बाधित्वा अतोगुणे सूत्रेण गुणसंज्ञकवर्णादेशः पररूपादेशः भवति किन्तु अत्र वृद्धिसन्धिं बाधित्वा पररूपादेशः भवति अतो गुणे इति सूत्रेण
अग्रे इड् वहि अत्र वहि मध्ये तु कस्यापि अत्र हितसंज्ञा न भवति वहि एव अत्र तिष्ठति तर्हि वहि मध्ये यत् यदि वयं पश्यामः अत्र टी भाग् कः तर्हि अचोन्त्यदिति इति सूत्रेण पश्यामः चेत् वहि मध्ये यत् अन्तिमिकारः अस्ति हकार उत्तरवर्ति इकार तस्य टी संज्ञा भवति अचोन्त्यदिति इति सूत्रेण तर्हि आत्मनेपदानां टेरे इति सूत्रेण टी भागस्य स्थाने एकार आदेशः भवति तर्हि अत्र वह योग इ अस्ति तस्य स्थाने एकारादेश तर्हि वह योग एकारादेश भवति तर्हि वर्णमेलनं कृत्वा वहि इति रूपं भवति
तत्र पश्यतु
अत्र वहि भवति किन्तु एतत् स्वीकुर्मः वा
वहि इत्यत्र अन्तिम अचुवर्णः ईकारः अस्ति टी भागः ईकारः अस्ति तत्र टित आत्मनेपदानां टेरे इति सूत्रेण ईकारस्य स्थाने एकारादेशः भवति वह् योगः एकारः वहे इति सिद्धप्रत्ययः खलु अत्र एध इति अङ्गमस्ति एध योगः वहे वदतु
एध योग वहे अहं चिन्तयामि एधा वहे अस्ति वा
एधा वहे
तर्हि करोमि इदानीम् अहम् एधयोगवहि अत्र एधयोगवहि अत्र अन्यत् किमपि कार्यं नास्ति केवलम् अत्र अतो दीर्घो यै इति सूत्रेण अत्र पूर्व पूर्वस्थाने दीर्घादेशः भवति, सवर्णदीर्घादेशः भवति, तर्हि एधामहि इति भवति वर्णमेलनं कृत्वा.
अत्र अतो दीर्घो यञि इति उक्तवती, यञि प्रत्याहारस्थवर्णः अत्र कः वर्णः अस्ति, यञि प्रत्याहारस्थवर्णयुक्तप्रत्ययः कः?
वहि, वहि मध्ये यत् वकारः अस्ति तर्हि यञि प्रत्याहारस्य वर्णः अस्ति.
उत्तमम्. अतो दीर्घो यञि इति सूत्रेण अत्र वकारः यञि प्रत्याहारस्थवर्णः अस्ति इति कारणतः अतः अङ्गस्य दीर्घादेशः भवति, तेन एधावहे इति रूपं भवति. अस्मिन् पाठे वयं प्रत्ययादेशानां प्रसङ्गे पठन्तः स्मः. अत्र यानि यानि सूत्राणि दत्तानि तानि सर्वाणि प्रत्ययादेशसम्बद्धसूत्राणि, किन्तु अतो दीर्घो यञि इति सूत्रं प्रत्ययादेशसम्बद्धं सूत्रं नास्ति, अतः अस्मिन् करपत्रे न स्थापितमस्ति. अस्माकं कार्यं कीदृशमस्ति, एकस्मिन् प्रकोष्ठे अङ्गं साधयामः, अन्यस्मिन् प्रकोष्ठे सिद्धप्रत्ययान् साधयामः, तृतीयसोपाने अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः. इत्युक्ते यदा वयम् अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः तस्मिन् समये अतो दीर्घो यञि इति सूत्रस्य कार्यम् अग्रिमे करपत्रे तस्मिन् प्रसङ्गे, इत्युक्ते यदा वयम् अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः तस्मिन् प्रसङ्गे एव अतो दीर्घो यञि इति सूत्रस्य आवश्यकता भवति, अतः अस्मिन् करपत्रे न दत्तमस्ति, अग्रिमे करपत्रे तस्य प्रसङ्गः अस्ति. अतो दीर्घो यञि इति सूत्रम् अङ्गाधिकारे अस्ति, अदन्तम् अङ्गम् अस्ति चेत् यञादिप्रत्यये परे अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः इति उक्तमस्ति. वकारः यञ् प्रत्याहारे अस्ति. अग्रे
महिङ्ग् अस्ति अन्तिमम्, उत्तम पुरुष बहुवचन महिङ् प्रत्ययः अस्ति. अत्र महिङ् मध्ये यत् अन्तिम गकारः अस्ति तस्य हलन्त्यम् इत्यनेन इतसंज्ञा भूत्वा तस्य लोप इत्यनेन लोपः भवति, केवल महि एव अत्र अवशिष्यते. तर्हि अत्र अचोन्त्यादि अटितात्मनेपदेनां तेरे इति सूत्रस्य आवश्यकता अस्ति चेत् अचोन्त्यादि टि इति वदति, टि भाग् कः इति. तर्हि अत्र महि मध्ये यत् अन्तिम इकारः अस्ति तत् अस्ति टि भागः, सः अस्ति टि भागः. तर्हि तत्र टि भागस्य स्थाने एकारादेशः भवति टि आत्मनेपदानां तेरे इति सूत्रेण टि भागस्य स्थाने एकारादेशः भवति. तर्हि अत्र महे इति रूपं भवति, महे इति सिद्धतिं प्रत्ययः लट् लकारस्य कृते उत्तमपुरुष बहुवचन भवति.
महिङ् इत्यत्र ञकारस्य इति संज्ञा केन सूत्रेण भवति?
हलन्त्यं
सूत्रेण महिङ् इत्यस्य ञकारस्य इति संज्ञा, तेन महि अवशिष्यते. तत्र ईकारः एव टि संज्ञक भागः. टितात्मनेपदानां तेरे सूत्रेण ईकारस्य स्थाने एकारादेशः, अन्ततो गत्वा महे इति सिद्धप्रत्ययः, एध इति अङ्गमस्ति. साधयतु एधामहे.
एध योगः महे अत्रापि समानमेव. अत्र अतो दीर्घो यै इति सूत्रेण एव पूर्वस्वरवर्णस्य स्थाने दीर्घादेशः भवति, तर्हि एधामहि इति भवति.
उत्तमम्. अतो दीर्घो यञि इति लिखितमस्ति खलु, अदन्तम् अङ्गम् अस्ति चेत् अदन्तात् अङ्गात् परे यञ्यादिप्रत्ययः अस्ति चेत् अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः.
आमाम्, अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः,
तेन एधामहे इति रूपं. वदतु.
तर्हि एध मध्ये धकारोत्तरवर्ती अकारः अस्ति, तत् अस्ति अङ्गम्, यत् अग्रे प्रत्ययः अस्ति, प्रत्ययात् प्राक् यः अस्ति तत् यस्मात् प्रत्ययविधिस्तदाति प्रत्ययङ्गम् इति सूत्रेण अङ्गसंज्ञा भवति. एध अस्य अङ्गसंज्ञा भवति धकारोत्तरवर्ती अकारस्य स्थाने. अत्र अङ्गस्य अन्तिम यः भागः अस्ति तस्य दीर्घादेशः भवति, तर्हि एधामहि इति रूपं भवति.
एधामहे एध धातोः लटि रूपाणि स्मारयतु.
एधते, एधेते, एधन्ते, एधसे, एधेते, एधद्वे, एधे, एधावहे, एधामहे.
तत्र भेदः अस्ति खलु, एधावहे, एधामहे खलु.
आम्.
उत्तमम्. अग्रे पठतु.
तर्हि लटि सिद्धप्रत्ययः, लटि सिद्धप्रत्ययः ते इते अन्ते, से इथे द्वे, ए वहे महे. तर्हि तावत् एव टित् लकारेषु तेः स्थाने एत्वं, थासः स्थाने से, अदन्तम् अङ्गं चेत् आकारस्य स्थाने इकारः. तर्हि अत्र टित् लकारेषु अत्र लोट् लकारस्य चिन्तनम् अस्ति
लट् चिन्तनं लट् चिन्तनं
लट् लकारस्य एव निर्माणं कृतवती तेन लोट् किमर्थम् उक्तवती लट् लकारस्य चिन्तनम् अस्ति अत्र तर्हि लट् लकारेषु अत्र कुत्र कुत्र परिवर्तनं भवति इति अस्ति तर्हि अत्र टेः स्थाने एत्वं भवति तर्हि अत्र यत्र टी इति अचोन्त्यादिति इत्यनेन टी संज्ञा भवति तत्र तत्र टी आत्मनेपदानां तेरे इति सूत्रेण अत्र एत्वं भवति तर्हि अनन्तरं थास् अस्य कृते पृथक्तया सूत्रमस्ति थासः से इति सूत्रेण तत्र थास् अस्य सम्पूर्णस्थाने अनेकाशि सर्वस्य इत्यनेन अत्र से इति आदेशः भवति अनन्तरम् अदन्तमङ्गं चेत् अत्र यत्र यत्र अदन्तमङ्गमस्ति तत्र तत्र किमस्ति यदि आकारः अङ्गम् अङ्गे यदि आकारः भवति चेत् तस्य आकारस्य इकारः भवति तर्हि आथां तथा च आताम् आतां तथा च आथाम् अत्र आकारः अस्ति तस्य आकारस्य टी भागः अस्ति तर्हि टी मध्ये आम् इति अत्र टी भागः अस्ति इदानीम् आतां वा आथां स्वीकुर्मः चेत् द्वयोः मध्ये आम् इति एव टी भागः तर्हि तस्य स्थाने अत्र एकारः भवति टी भाग अस्ति तस्य स्थाने एकारः आत्मने टी आत्मने पदानां टेरे इत्यनेन एकारः भवति अनन्तरम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं भवति अतो नितः इति सूत्रेण आतोनितः इति सूत्रेण आकारस्य स्थाने इय आदेशः भवति अनन्तरं तस्य यकारस्य लोपोर्व्यर्वलि इति सूत्रेण लोपः भवति केवल इ इति तत्र अवशिष्यते
वलि परे वल् प्रत्याहारस्य वर्णः प्रत्ययस्य आदिमवर्णः अस्ति इत्यतः खलु
आम्
उत्तमम् इत्युक्ते तत् कार्यं केवलम् अदन्ताङ्गेषु एव भवति न तु अनदन्ताङ्गेषु अनदन्ताङ्गेषु तत् कार्यं न भवति अन्ततो गत्वा इमानि त्रीणि कार्याणि टित् विशिष्टानि कार्याणि टित् लकारेषु इमानि त्रीणि कार्याणि भवन्ति नित् लकारेषु वयं पूर्वं दृष्टवन्तः इतश्च तस्सस्तमिपां तान्तन्तामः नित्यं नितः इति सूत्राणि नित् विशिष्टानि सूत्राणि किन्तु टित आत्मनेपदानां तेरे थासहसे इमानि तित् विशिष्टानि कार्याणि अग्रे पठतु सूत्रं पठतु
सूत्रं तित् आत्मनि पदानां तेरे
अग्नि अत्र तित् इति वदामः वा तित
न तित वदामः क्षम्यताम् पूर्वमपि दोषं कृतवती क्षम्यताम्
तित इति कथनेन टितः इति अर्थः खलु तत्र विसर्गलोपः जातः टित इति कथनेन टितः सूत्रस्य प्रसङ्गे अग्रे दत्तमस्ति तत्र तु विसर्गलोपः जातः पठतु
तीत आत्मनि पदानां तेरे तृतीय अध्यायस्य चतुर्थपादस्य सप्ततितमं सूत्रं तित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकार आदेशो भवति तितः षष्ठ्यन्तम् आत्मनेपदानां षष्ठ्यन्तं तेः षष्ठ्यन्तम् ए युक्तप्रथमान्तम् अनेकपदमिदं सूत्रम् लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् तितः लस्य आत्मनेपदानां तेः ए अत्र टित् आत्मनेपदानां तेरे इति सूत्रस्य व्याख्यानं दत्तमस्ति टित् लकाराणां स्थाने आत्मनेपदसंज्ञक प्रत्ययानां कृते अत्र एव अस्ति एतत् सूत्रम् पृथक्त स्पष्टतया अत्र प्रतिपादितम् अस्ति कृतं यत् आत्मनेपदसंज्ञकानां प्रत्ययानां तर्हि आत्मनेपदसंज्ञक प्रत्ययस्य टी भागस्य स्थाने अत्र एकार आदेशः भवति तर्हि टी अत्र टी षष्ठ्यन्तम् आत्मनेपदानामपि षष्ठी विभक्ति तेः षष्ठी अस्ति ए इति लुप्तप्रथमान्तम् अस्ति अहं सम्यक्तया अलुप्तप्रथमान्तम् इति न वक्तुं शक्नोमि यत् अस्य प्रथमा विभक्ति यत् अस्ति तस्य लोपः भवति इति अर्थः अस्ति इति अहं मन्ये
अत्र ये इति लुप्तप्रथमान्तं पदं ये इति प्रातिपदिकम् अस्ति चेत् तत्र सुप् प्रत्ययस्य योजनेन ये हे इति रूपम् आनेतव्यं खलु ये इति प्रातिपदिकम् अस्ति प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययं योजयामः. सुप्रत्ययस्य योजनेन येः इति रूपं तत्र आगन्तव्यं. किन्तु सूत्रे केवलं ये इति लिखितमस्ति, तेरेः इति न लिखितमस्ति, तेरे इति एव लिखितमस्ति. किमर्थं तथा इति प्रश्ने सति, सूत्राणि छन्दोवत् भवन्ति, इत्युक्ते छन्दसः कृते एवं लिखितमस्ति. वस्तुतः प्रथमाविभक्तिः अस्ति, किन्तु प्रथमाविभक्तेः लोपः जातः. एवं रीत्या किमर्थं सूत्राणि लिखितानि इत्युक्ते केवलं छन्दसः कृते एवं रीत्या लिखितमस्ति. सूत्राणि छन्दोवत् भवन्ति, तत्र प्रथमाविभक्तिप्रत्ययः नास्ति चेत् अपदं भवति खलु.
अपदं न प्रयुञ्जति,
अपदं न प्रयुञ्जीत इति नियमः अस्ति. तेन नियमेन तत्र प्रथमाविभक्ति एकवचनप्रत्ययः आवश्यकमस्ति. प्रथमाविभक्ति एकवचनप्रत्ययस्य आवश्यकता अस्ति, किन्तु तस्मात् परं विभक्तिप्रत्ययः यः अस्ति तस्य लोपः जातः. सूत्राणि छन्दोवत् भवन्ति इत्यतः अत्र प्रथमाविभक्तिप्रत्ययस्य लोपं कृत्वा सूत्रं लिखितम् अस्ति. प्रथमाविभक्तिप्रत्ययः नास्ति चेत् अपदं भवति, अपदं न प्रयुञ्जीत इति नियमानुसारेण अत्र विभक्तिप्रत्ययः आसीत् इति एव मन्तव्यं. वदतु
तर्हि अत्र लस्य इति लस्य अस्य सूत्रस्य अधिकारः. तर्हि अनुवृत्तिसहितसूत्रमस्ति, तितः लस्य आत्मनेपदानां तेः ए.
अचन्त्यादिति प्रसङ्गे वयं पूर्वं पठितवन्तः, इदानीं सत्यभामा भगिनी भवती पठतु अग्रे.
अजोन्द्यादिति प्रथमाध्यायस्य प्रथमपादस्य चतुर्षष्टितमसूत्रमस्ति. अजां मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात्. अन्ते भवः इति अन्त्यः, अन्त्यः आदि आदिर् आदिर्यस्य सः अन्त्यादिः इति बहुव्रीष्टमासः. अजः षष्ट्यन्तम्, अन्त्यादिः इति प्रथमान्तं, टि इति प्रथमान्तं, त्रिपदमिदं सूत्रम्. अत्र अजः एकवचने, यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकम्. जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति परिभाषा अस्ति.
परिभाषासूत्रं
जातिः आख्यातायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् सूत्रं स्वयं सम्पूर्णम्. अजः अन्त्यादि टि शब्दस्य अन्तिम अच्छुवर्णः तः आरभ्य शब्दस्य आचुवर्णात् आरभ्य अन्तिमवर्णपर्यन्तं यावत् भागः अस्ति तस्य अस्य अंशस्य टि इति संज्ञा विधीयते इति उक्तम्.
यावत् भागः इति साधु वा यावान् भागः साधु वा?
यावान् भागः इति
साधु. वदतु
तर्हि तदनन्तरं समासः विग्रहं दत्तमस्ति, समासस्य विग्रहं दत्तमस्ति. अन्त्यादि इति अस्ति, तर्हि अन्त्य इति भागस्य अन्ते भव अन्त्यः.
तत्र कः समासः अस्ति? अन्ते भवः अन्त्यः.
अन्ते भवः इत्युक्ते सप्तमी तत्पुरुषसमासः अस्ति वा? अन्त्यादिः अत्र अन्त्यादिः आदि अन्त्यः आदि यस्य सः अत्र बहुव्रीहि उक्तमस्ति. तर्हि अन्त्यादिः यः अन्यः अस्ति इति कारणात् तत्र बहुव्रीहि एव. पश्चात् अजः इति षष्ट्यन्तं पदम् अस्ति. अजः अच् इत्यस्य षष्ट्यै विभक्तिपदमस्ति.
वचनं वदतु, अचः इति वचनम्
एकवचनमस्ति.
एकवचनमस्ति अग्रे.
अतः अन्यथा अजाम् इति भवति. इदानीम् अन्त्यादि इति प्रथमान्तं, टि इति प्रथमान्तं, तदेव आदेशः. अत्र त्रिपदमिदं सूत्रं स्वयं सम्पूर्णमस्ति. यतोहि अजो अजः अन्त्यादि टि तदेव सूत्रे अपि.
इदं सूत्रं संज्ञासूत्रं, षट् प्रकारकाणि सूत्राणि सन्ति खलु, तेषु संज्ञासूत्राणि कानिचन सन्ति. इत्युक्ते अनेन सूत्रेण टि संज्ञा नाम किम् इति ज्ञायते. अग्रे
अत्र अजः इति पदम् एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. यद्यपि अत्र अजां मध्ये यः अन्त्यः इति उक्तं, तत् तदापि अत्र सूत्रे अजः इति एव उक्तमस्ति. तद् किमर्थम् इति चेत् तत्र एकं परिभाषा दत्तमस्ति खलु, जात्याख्यातम् एकस्मिन् अन्यत एकस्मिन् बहुवचनम् अन्यतरस्यां.
सूत्रं समीचीनतया वदत्.
जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्.
अत्र अन्यतरस्याम् इत्यस्य अर्थः कः?
विकल्पेन इति.
उत्तमं. सूत्रेषु अन्यतरस्याम् इति अस्ति चेत् विकल्पेन जाति आख्यायाम् इत्युक्ते यत्र यत्र सूत्रेषु जातेः उल्लेखः अस्ति तत्र विकल्पेन बहुवचनस्य अर्थः अपि स्वीकर्तुं शक्नुमः, बहुवचनमपि भवितुमर्हति. यद्यपि अस्मिन् सूत्रे अचः इति षष्टिविभक्ति एकवचने एव उक्तमस्ति, तथापि अत्र अच् इति जातिः अस्ति इति कारणतः जाति आख्यायाम् इत्युक्ते अस्मिन् सूत्रे अच् जातेः उल्लेखः अस्ति इति कारणतः अचः इत्यस्य अर्थः अचाम् इति स्वीकर्तव्यं खलु.
यद्यपि सूत्रे एकवचनं दृश्यते तदापि अत्र अवगमनं कथं भवेत् इति चेत् अजां मध्ये इति भवनीयम् इति अर्थः.
अच् वर्णानां मध्ये इति अर्थः अस्ति. अग्रे वदतु.
आशयः बहुवचनं निर्धारणः, निर्धारणसप्तमे बहुषु एकम् इत्युक्ते अत्र अस्य आशयः अजः एकवचने, यतोहि अनेन अच् जातिः इति इष्टम् इति उक्तं खलु. अस्य आशयः कः इति चेत् बहुवचनं निर्धारणसप्तमे बहुषु एकवचनं, बहुषु एकवचनम् इति सूत्रमस्ति इति मन्ये.
न न,
बहुषु एकम्.
अत्र तु विषयद्वयमस्ति. यद्यपि सूत्रे अचः इति उक्तमस्ति तथापि तस्य अर्थः तु अचाम् इति एव स्वीकर्तव्यम्, अच् वर्णानां मध्ये इति एव स्वीकर्तव्यं. अनेन परिभाषासूत्रेण ज्ञायते जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति परिभाषासूत्रेण ज्ञायते. अत्र अच् इति जातिः अस्ति इति कारणतः बहुवचन अर्थः स्वीकर्तव्यः इति एकः विषयः. अन्यविषयः कः इत्युक्ते अच् वर्णानां मध्ये इति कथनेन अच् वर्णेषु अन्तिम अच् वर्णस्य अनन्तरं यदस्ति यावदस्ति तत्सर्वं टि भागः भवति इति अर्थः अस्ति. अचाम् इति कथनेनापि तत्र अच् वर्णेषु इति अर्थः स्वीकर्तव्यः. तत् कथं भवति इति इत्युक्ते तदर्थं सूत्रमस्ति यतश्च निर्धारणम् इति सूत्रमस्ति. तेन सूत्रेण यतश्च निर्धारणम् इति सूत्रेण निर्धारणसप्तमी भवति. यद्यपि अत्र अच् वर्णानाम् अचाम् इति लिखितमस्ति तथापि तस्य अर्थः अच् वर्णेषु. तदवगन्तुम् अहं पूर्वम् उदाहरणानि अपि उक्तवती. अस्मिन्नेव वर्गे मनुष्येषु क्षत्रियः शूरतमः इति वाक्यं साधु. तस्मिन्नेव अर्थे मनुष्याणां क्षत्रियः शूरतमः इति अपि साधु. तदर्थमेव गीतावाक्यानि अपि अहम् उक्तवती. वेदानां सामवेदः अस्मि, इन्द्रियाणां मनः अस्मि इति भगवान् उक्तवान्. भगवद्गीतायाम् इमानि वाक्यानि द्रष्टुं शक्नुमः. आदित्यानाम् अहं विष्णुः, आदित्यानाम् अहं विष्णुः इति कथनेन आदित्यानाम् इति षष्टिबहुवचनरूपं दत्तं चेदपि तस्य अर्थः तु आदित्येषु, तत्र निर्धारणसप्तमी अस्ति. एवमेव नक्षत्राणाम् अहं शशी इति उक्तवान् इत्युक्ते नक्षत्रेषु अहं शशी. इमानि वाक्यानि गीतातः उद्धृतानि वाक्यानि. एवमेव अत्रापि यद्यपि अचाम् इति वदामश्चेदपि अच् वर्णेषु अच्सु इति एव अर्थः स्वीकर्तव्यः. अतः एव निर्धारणसप्तमी. तत्र समुदायः अस्ति, जातिसमुदायः, गुणसमुदायः, क्रियासमुदायः अस्ति चेत् समुदायात् एकस्य पृथक्करणं, सेपरेटिङ्ग् वन् एमाङ्ग् द ग्रूप् कर्तुमिच्छामश्चेत् तस्मिन् प्रसङ्गे निर्धारणसप्तमी तस्य प्रयोगः भवति. तदर्थं सूत्रमस्ति यतश्च निर्धारणम्. अत्र तु निर्धारणसप्तम्यर्धे अचः इति पदं प्रयुक्तमस्ति. भवती वदतु.
इत्युक्ते अत्र बहुषु एकम् इति उक्तमस्ति. तत् कथम् इति चेत् इदानीम् अच्छु वर्णेषु यः अन्तिमवर्णः इति उक्तं खलु, तर्हि अत्र अच्छु वर्णेषु इति यदा इति अपि स्वीकर्तुं शक्यते. तदर्थमेव अत्र यतश्च निर्धारणम् इति सूत्रेण निर्धारणसप्तमी विद्यते इति उक्तवती. तदेव निर्धारणसप्तमी बहुषु एकम्. तर्हि अचुवर्णेषु एकम् इत्यनेन यः अन्तिम अचुवर्णः तद् तदेव अत्र स्वीकर्तव्यम्.
अच् इति जातिः अस्ति, जातेः उल्लेखः अस्ति इति कारणतः बहुषु एकस्य स्वीकरणं समुदायात् बहुषु एकस्य पृथक् करणम् इति एव वक्तव्यमस्ति. अग्रे
अत्र विषयद्वयम् उक्तमस्ति. अग्रे अत्र परिभाषासूत्रमस्ति जाति आख्यायाम् एकस्मिन् बहुवचने अन्यतरस्याम् इति, बहुवचनम् अन्यतरस्याम् इति.
भवती श्रुतवती खलु व्याख्यानम्, एकम् अन्यत् पदमस्ति व्याख्यानम् इति पदमस्ति, तत्रापि धातुः समानधातुः एव. अत्रापि आख्यायाम् इति सप्तमी एकवचनं रूपम् अस्ति. जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इमानि पदानि सन्ति.
अत्र आख्या इत्युक्ते नामकरणं, नाम इति संज्ञा इति अर्थः वा?
उल्लेखः
इत्युक्ते सूत्रेषु यत्र जातेः उल्लेखः आगच्छति तत्र एकस्य बोधकः वा अथवा बहुवचने, एकवचने अथवा बहुवचने स्वीकर्तुं शक्यते इति सूत्रं
सन्तम् अत्र. अन्ते बवः अन्त्यः इति दत्तमस्ति, अन्त्यः इत्यस्मिन् कः प्रत्ययः अस्ति खलु? अन्ते अन्त्यः इति भवति.
अन्त्यः इत्यस्मिन् पदे कः प्रत्ययः अस्ति वा? यत् प्रत्ययः,
मम चिन्तनमासीत् अन्ते बवः अन्त्य कथम् आगच्छति अत्र? ऐ थिङ्क् सम् प्रत्ययः मस्ट् बि देर् इट् इस् मै अण्डर्स्टाण्डिङ्ग् दिस्.
यत् प्रत्ययः इति अहं चिन्तयामि, अन्त इति धातुः अस्ति इति भाति. भगिनी भवती पठतु.
अग्रिमसूत्रमस्ति आतो मितः, सप्तमाध्यायस्य द्वितीयपादस्य एकशीतितमसूत्रमस्ति. अदन्तात् अङ्गात् परस्य सार्वधातुकं यत् प्रत्ययस्य आकारस्य स्थाने इया इति आदेशः भवति. अदन्त अङ्गेषु अनदन्त अङ्गेषु न भवति. अनदन्त अङ्गेषु आतेः इत्येव भवतः, आते इत्येव भवतः. आतः इति सूत्रनिवेदनं, आतः इति षष्ट्यन्तं, मिदः इति षष्ट्यन्तं. तर्हि द्विपदम् इदं सूत्रम् युदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, अतो ये इत्यस्मात् अतो इया इत्यनयोः अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति अधः अङ्गात् ङितः सार्वधातुकस्य आतः आतो इयः इति. तर्हि अदन्तात् अङ्गात् परस्य सार्वधातुकङित् प्रत्ययस्य आकारस्य स्थाने इया इति आदेशः भवति. अदन्तम् अङ्गं कुत्र आगच्छति इति दृष्टम्.
पूर्वं रूपाणि साधितवन्तः, वन्देते इति रूपसाधनवेलायाम् आताम् इति प्रत्ययः अस्ति. अस्मिन् प्रसङ्गे अग्रिमे सप्ताहे इतोपि विस्तरेण पठिष्यामः. भवती यद् जानाति तद्वदतु.
तर्हि अत्र यत्र अदन्तम् अङ्गम् अस्ति, परे सार्वधातुक ङित् प्रत्ययः अस्ति, तर्हि लोटो लेङ्वत् इत्यनेन लेट् लकारप्रत्ययः आगच्छति चेत् अपि ङित् अस्ति खलु, अथवा लेङ्
लङ्लकारस्य प्रसङ्गः अत्र नास्ति. अत्र किं वदामः इत्युक्ते अदन्तम् अङ्गं स्यात्, अदन्त अङ्गेषु अस्य कार्यं भवति, अपि च सार्वधातुक नित् प्रत्ययस्य इति किमर्थं वदामः? अत्र नीलं भगिनी भवती वदतु, नित् प्रत्ययस्य इति पदं किमर्थम् उक्तम् अस्ति? लटि प्रसङ्गे पठन्तः स्मः, किन्तु अत्र नित् प्रत्ययस्य इति लिखितम् अस्ति.
आत्मनेपदप्रत्ययः ङितः अस्ति खलु, तर्हि ङित् आगच्छति, अङ्गात् ङित्.
नीलं भगिनी भवती वदतु, भवती किं चिन्तयति?
अत्र सार्वधातुक इति सार्वधातुकस्य इति अनुवृत्ति अपि अस्ति, सो सार्वधातुक ङित् इति लिखितं. सो सार्वधातुक ङित् चिन्तयामः चेत् अन्यथा तु तत्र ये तिवादेषु ये तत्र लिट् अपि च आश्रितलिङ्गकारे तिवादयः सार्वधातुकसंज्ञकः, सो तत्र नित् इति विषयः नास्ति, केवलं सार्वधातुकविषये एव नित् विषयः. सो ये सार्वधातुकम् अपि इत्यनेन ये निद् भवति, अहं चिन्तयामि तस्य विषयः अस्ति सार्वधातुक नित्.
लट्लकारः सार्वधातुकलकारः,
लट्लकारप्रत्ययेषु ये प्रत्ययाः फित् नास्ति खलु, तत्र
सार्वधातुकम् अपि निद्वत् भवति, सार्वधातुकम् अपि निद्वत् भवति, अत्र प्रत्ययः फित् नास्ति, अपित् अस्ति.
अपिता सन्ति तत्र सार्वधातुकम् अपि निद्वत् इति भवति सार्वधातुकम् अपि नित् इति सूत्रमस्ति तेन निद्वत् भवन्ति अतः अत्र नित् इति तस्य अर्थः तादृशं भवति
नित् सार्वधातुक् लकारि लकार इति अस्ति इति मम अपि तथैव मतमस्ति अर्धधातुक् लकारेषु तत् अर्धधातुक् लकारेषु अस्य किमस्ति अस्य प्रसक्तिः न भवति सार्वधातुक् किन्तु नित् लकारः आवश्यकः इदानीं लङ् लकार वदामः चेत् लट् लकारे अस्य अतोनित् वयम् उपयोगं कृतवन्तः अस्य प्रसक्तिः प्राप्तिः अपि जाता तर्हि अत्र नित् इति वदनेन अत्र
महोदय सर्वदातकम् अपित् इति सूत्रेण निद्वत् व्यवहरति अतः
तथैव
सार्वधातुकलकारेषु आत्मनेपदसंज्ञकप्रत्ययस्य आकारस्य स्थाने इय आदेशः इति वक्तुं शक्यते वा
इत्युक्ते भगिनी अत्र नितः सार्वधातुकस्य आतो इयः इति आदेशः भवति कीदृशसार्वधातुकस्य अत्र नितः सार्वधातुकस्य सो अत्र नितः इत्यनेन तत्र लकारनित् इति नास्ति अत्र प्रत्ययः नित् सो प्रत्ययः नित् अस्ति चेत् तत्र सार्वधातुकस्य नित् इति अस्ति अतः वयं जानीमः आत्मनेपदि यद्यपि आत्मनेपदि प्रत्ययेषु तत्र कोऽपि तिप् तत्र पित्वं कुत्रापि नास्ति सर्वे अपि परन्तु तत्र लिट्च लिङ्गशिशि इत्यनेन तत्र ये अहं चिन्तयामि तत्र एतत् कार्यं नास्ति तत्र तिपादयः अर्धधातुसंज्ञकः मूले एव अतः नितः सार्वधातुकस्य आतो इयः अहं चिन्तयामि तत्र इय आदेशः न भवति
लिट्च लिङ्गशिशिसूत्रेण ते साक्षात् अर्धधातुकाः भवन्ति इत्यतः तत्र अर्धधातुकलकारेषु अस्य कार्यं नास्ति
आचार्य तर्हि स्पष्टतया लिखितमस्ति न सार्वधातुक् एव लकारः आवश्यकं न तत्र साक्षात्
अत्र सार्वधातुक् लकारः विषयः नास्ति अत्र सार्वधातुक् प्रत्ययविषयः सार्वधातुक् प्रथमे ते सार्वधातुक् भवेत् प्रत्ययः सार्वधातुक् भवेत् अपि च कीदृशसार्वधातुक् नित् सार्वधातुक् तस्य आकारस्य आकाररूपी अवयवस्य आदेश यदि यदि प्रत्ययः एव सार्वधातुक् नास्ति अर्धधातुक् अस्ति तत्र तत्र नितः वा अनित् वा इति न चिन्तनीयम्
सर्वधातुक्
अग्रिमे सप्ताहे पुनः अस्मिन् प्रसङ्गे पठिष्यामः आतोनितः प्रसङ्गे एकवारं पठित्वा आगच्छन्तु तस्य चिन्तनं भविष्यति अग्रिमे सप्ताहे अग्रिमपरिच्छेदं प्रति गच्छेम पद्मनाभन् महोदय भवान् पठतु
वस्तुतः आतोनितः इत्यनेन ई आदेशः भवति तदा लोपो व्योर्वलि इत्यनेन इति सूत्रेण यकारः इत्यस्य लोपः भवति वल् प्रत्यहारे परे अत्र आतोनितः इति सूत्रेण आकारात् आकार यत्र आकारः भवति अनन्तरं वल् अत्र आकारस्य स्थाने ई आदेशः भवति ई अनन्तरं प्रत्याहारस्य आदिमवर्णः वल् प्रत्याहारे अस्ति चेत् तत्र वल् प्रत्याहारात् पूर्वं यद् अन्तिम यकारः वा वकारः वा अस्ति तस्य लोपः भवति इति अत्र दत्तमस्ति
परिचितं सूत्रं खलु लोपो व्योर्वलि पूर्वमपि वयं दृष्टवन्तः अग्रे
या तासगसे तित् लकारस्य तास्थाने से आदेशः भवति तासगषष्ठ्यन्तं से लुप्तप्रथमान्तं द्विपदमिदं सूत्रं तित आत्मनेपदानां तेरे अत्र तित् लकारस्य तास् इत्यस्य स्थाने से आदेशः भवति तासगषष्ठ्यन्तं अतः अर्थः स्थाने भवति से लुप्तप्रथमान्तम् अत्र भवान् भवती उक्तवती छन्दस् कारणात् अत्र लुप्तः अत्र सेः इति वक्तुं शक्नोमि परन्तु अत्र छन्दसि कारणात् से इति उक्तमस्ति द्विपदमिदं सूत्रं तित आत्मनेपदानां तेरे तित अनुवृत्ति अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तितः लस्य तासः से तित् लकारस्य तासः स्थाने से आदेशः भवति अतः उत्तमपुरुष एकवचने तास् इति उक्तमस्ति तस्मिन् स्थाने
मध्यमपुरुषे खलु
मध्यमपुरुषे एकवचनं मध्यमपुरुषस्य एकवचनं
मध्यमपुरुषे एकवचनप्रत्ययः थास् प्रत्ययः थास् स्थाने से आदेशः
आदेशः भवति अत्र टित् लकारस्य उत्तमपुरुषे तास् इति मूलतिङ् प्रत्ययः अस्ति, तस्य स्थाने से आदेशः भवति. तासः षष्ठ्यन्तम् अतः स्थानी भवति. से प्रथमान्तम् अतः आदेशः भवति. तासः स्थाने से आदेशः भवति. अत्र टित् आत्मनेपदानां टेरे इत्यस्मात् टितः इत्यस्य अनुवृत्तिः भवति. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं टितः लस्य तासः से. टित् लकारस्य तास्थाने से आदेशः भवति. तास्थाने से आदेशः भवति.
उत्तमं. से इति लुप्तप्रथमान्तं पदं, तस्मात् परं यः प्रथमाविभक्तिप्रत्ययः अस्ति, सुप्रत्ययः अस्ति, तस्य लोपः जातः. छन्दसः कृते एवं लिखितमस्ति. इत्युक्ते तत्र प्रथमाविभक्तिप्रत्ययः नास्ति चेत् अपदं भवति. अपदं न प्रयुञ्जीत इति नियमेन तत्र प्रथमाविभक्तिप्रत्ययः आवश्यकः. किन्तु छन्दसः कृते एवं रीत्या प्रथमाविभक्तिप्रत्ययस्य लोपं कृत्वा तत्र लिखितमस्ति. नीलं भगिनी, अस्मिन् पाठे इतोपि किं ज्ञातव्यं?
जात्याख्याम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति तत्र सूत्रस्य विषये किञ्चित् वक्तुम् इच्छामि भगिनी. अत्र जात्याख्याम् एकस्मिन् बहुवचने अन्यतरस्याम् इति सूत्रं यः अस्ति, तत्र यत्र जाति उल्लेखः, सूत्रे जाति उल्लेखः अस्ति चेत् औत्सर्गिकनियमेन तत्र एकवचनस्य एव प्रयोगः, परन्तु कुत्रचित् बहुवचनरूपम् अपि दृश्यते, अतः अनेन सूत्रेण तदपि साधु. इत्युक्ते बहुवचनस्य प्रयोगः अन्यतरस्यां विकल्पेन भवति. सो प्रायशः वयं किं कुर्मः, यदा तत्र जाति उल्लेखः अस्ति तत्र एकवचनस्य एव, इत्युक्ते तत्र कलेक्टिव् नौन् विषये एकवचनस्य एव प्रयोगः सामान्य अस्ति. सो यत्र कुत्रचित् बहुवचन रूपं पश्यामः तदपि साधु अनेन सूत्रेण भवति इति अहं चिन्तयामि.
औत्सर्गिकरूपेण एकवचनं पश्यामः वा
सूत्रेषु? औत्सर्गिकरूपेण एकवचनं यथा अत्र अस्ति अचः इति एकवचने अस्ति, परन्तु कुत्रचित् तत्र बहुवचनप्रयोगः अपि दृश्यते जातिविषये. सो तदपि साधु अनेन सूत्रेण भवति. इत्युक्ते अत्र सूत्रं वदति बहुवचनम् अन्यतरस्यां, सो बहुवचनप्रयोगः जातिविषये अपि विकल्पेन भवितुं शक्नोति.
बहु सम्यक्, धन्यवादाः. वयं सम्यक् चिन्तनं कृतवन्तः लटि प्रसङ्गे. अग्रिमे सप्ताहे आत्मनेपदी धातूनां कृते लोट् लकारे सिद्धतिङ् प्रत्ययानां निर्माणं कथं भविष्यति इति चिन्तनं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.